Some matches are temporary, but your privacy shouldn't be. With Line 2, you get a second phone line just for dating. No need to share your personal number until you're ready. You can chat, text, and even block numbers, all while keeping things fun and private. It's perfect for online dating, blind dates, or just keeping things light. When you're ready to move on, Line 2 lets you cut ties without any drama. Dating should be fun and carefree. Line 2 keeps it that way. Ready to date on your terms? Visit line2.com/audio or download Line 2 in the App Store today.
Tadgruham shmashanatulyam yatra na bhavet paramatmanah charcha adhunika manavaha yan vyasto vartate yad ichchannapi bhajanartham samayam na nissarayitum shaknoti asyam paristhitau gitayaha sandeshaha कर्णविवरगोचराश्चेद् भवेयुः तदापि परमश्रेयसः समृद्धेश्च संस्काराणां बीजारोपणं बो भवीतीति भगवद्वाण्याः प्रतीकैः एभिः सान्द्रमुद्रिकाभिः प्रतिदिनं तस्य परमात्मनः स्मरणं जागरिष्यति इयमेव च भजनस्य आधारशीलास्ति श्री परमात्मने नमः। यथार्थ गीता, श्रीमद् भगवद् गीता, अथ नवमोऽध्यायः। षष्ठाध्यायं यावत् योगेश्वरेण कृष्णेन योगस्य क्रमबद्धं विश्लेषणं कृतम्। यस्य शुद्धार्थः आसीत् यज्ञस्य प्रक्रिया। यज्ञः तस्मिन् परमात्मनि प्रवेशं दापयितुम् एकाराधनायाः विधिविशेषस्य वर्णनमस्ति। यस्मिन् चराचरमखिलं जगत् हवनसामग्रीरूपेण वर्तते। मनसः निरोधे निरुद्धमनसश्चापि विलयकाले तदमृततत्त्वं विदितं भवति। पूर्तिकाले यज्ञः यस्य सृष्टिं करोति तस्य पानकर्ता ज्ञानी सनातनब्रह्मणि प्रविशति। तस्य मिलनस्य नाम योगः अस्ति। तस्य यज्ञस्य कार्यरूपे क्रियान्वयनं कर्म कथ्यते। सप्तमे अध्याये स उक्तवान् यदेतस्य कर्मणः कर्तारः व्याप्तं ब्रह्म सम्पूर्णं कर्म सम्पूर्णमध्यात्म सम्पूर्णमधिदैवम् अधिभूतम् अधियज्ञञ्च सहितं मां जानन्ति। अष्टमाध्याये तेनोक्तं यद् इयमेव परमागतिः इदञ्च परमधाम अस्ति। प्रस्तुताध्याये योगेश्वरः श्रीकृष्णः स्वयं चर्चितवान् यत् योगयुक्तपुरुषस्य ऐश्वर्यं किमाकारकम्। सर्वत्र व्याप्ते सत्यपि सः कथं निर्लेपः, कुर्वन्नपि कथमकर्ता सः, तस्य पुरुषस्य स्वभावे प्रभावे च प्रकाशं कृतवान्। योगमाचरणे क्रियान्वयने सम्भावितानां देवतादिकविघ्नानां भयात् सतर्कं कृतवान्। तस्य पुरुषस्य च शरणं ग्रहणाय प्रेरणां दत्तवान्। श्रीभगवानुवाच।
इदन्तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसे शुभात्।
योगेश्वरः श्रीकृष्णः उक्तवान्, अर्जुन, असूयारहितः सन् त्वदर्थमहमिदं परमगोपनीयं ज्ञानं विज्ञानसहितं वक्ष्यामि। अर्थात् प्राप्तेः अनन्तरं महापुरुषस्य दिनचर्यामपि वदिष्यामि यत् सः महापुरुषः सर्वत्र युगपत् कथं कर्म करोति, कथं स जागृतिं प्रददाति, रथी भूत्वा आत्मना सह कथं सदैव वर्तते। यद् ज्ञात्वा नाम यत् साक्षात् ज्ञात्वा त्वं दुःखरूपसंसारान् मुक्तो भविष्यसि, तज्ज्ञानं कीदृशमस्ति? अतोपरि कथयति कृष्णः।
राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम्।
विज्ञानसहितमिदं ज्ञानं सकलविद्याराजः कथ्यते। विद्यायाः अर्थः भाषाज्ञानं शिक्षा च नास्ति। विद्या हि का ब्रह्मगति प्रदाया, सा विद्या या विमुक्तये। विद्या सा कथ्यते यत् यस्याः सन्निधाने प्राप्ते सति सा विद्या तं सन्निधानमागतं व्यक्तिं समुत्थाय ब्रह्मपथि सञ्चालयन् मोक्षं दद्यात्। यदि मार्गे ऋद्धिसिद्धिषु प्रकृतौ च वा क्वचित् जातः अवरोधः तदा सुस्पष्टमस्ति यद् विद्या विफला जाता, सा विद्या नास्ति। इयं राजविद्येवमस्ति या निश्चितरूपेण कल्याणप्रदास्ति। अयं विद्याबोधः समस्तगोपनीयतायाः राजा अस्ति। अविद्याविद्यायाश्च अवगुण्ठनस्य जाते अनावरणे योगयुक्तायाः पश्चाद् अनेन मिलनं भवति। इदं ज्ञानम् अतिपवित्रम् उत्तमं प्रत्यक्षं फलदं चास्ति। इतः कर्म कुरु ततः फलं लभस्व, इत्थं प्रत्यक्षं फलदमस्ति। नायम् अन्धविश्वासः यदस्मिन् जन्मनि साधनविधानं कुरु फलं त्वपरजन्मनि मेलिष्यति। अयं परमधर्मः परमात्मना संयुक्तोऽस्ति। विज्ञानसहितमेतत् ज्ञानं सरलम् अविनश्वरञ्चास्ति। द्वितीयाध्याये योगेश्वरः श्रीकृष्णः प्रावोचत् यत् अर्जुन, अस्मिन् योगे बीजस्य नाशः न भवति। अस्य अल्पमपि साधनं जन्ममरणमहद्भयात् उद्धारं करोति। षष्ठाध्याये अर्जुनः श्रीकृष्णम् अपृच्छत् यद् भगवन् शिथिलप्रयत्नवान् साधकः नष्टः भ्रष्टः तु न जायते किम्? श्रीकृष्णेनोत्तरितं यद् अर्जुन, पूर्वं तु कर्मज्ञानम् आवश्यकम्, ज्ञानानन्तरञ्च अल्पमपि साधनं जातं तदा तस्य तस्मिन्नपि जन्मनि कदापि विनाशः न भवति। प्रत्युत तस्य अल्पाभ्यासस्य प्रभावतः प्रत्येकं जन्मनि तदेव साधनं करोति, अनेकजन्मनां परिणामे तत्रैव प्राप्नोति। यस्य नाम परमगतिः परमात्मा च अस्ति। तज्ज्ञानमेव योगेश्वरः श्रीकृष्णः अत्रापि ब्रवीति यदिदं साधनं सरलम् अनश्वरं चास्ति, किन्तु एतदर्थं श्रद्धा नितान्तमनिवार्या।
अश्रद्धधाना पुरुषा धर्मस्यास्य परन्तप अप्राप्य माम् निवर्तन्ते मृत्युसंसारवर्त्मनि।
परन्तपाः अर्जुन अस्मिन् धर्मे श्रद्धारहितः पुरुषः माम् अप्राप्य संसारक्षेत्रे भ्रमणं करोति, अतः श्रद्धा परमा अनिवार्या अस्ति। किं भवान् संसारतः परः वर्तते? अत उपरि कथयति श्रीकृष्णः।
मया ततमिदं सर्वं जगदव्यक्तमूर्तिना मत्स्थानि सर्वभूतानि न चाहं तेष्वस्थितः।
मम अव्यक्तस्वरूपेण जगदिदमस्ति व्याप्तम्, अर्थात् अहं येन स्वरूपेणावस्थितोऽस्मि तद्रूपं सर्वत्रास्ति व्याप्तम्। सर्वे प्राणिनः मयि प्राप्तस्थानाः सन्ति, किन्तु नाहं तेषु स्थितः, कुतो हि अहम् अव्यक्तरूपेणास्मि संस्थितः। महापुरुषः यस्मिन् अव्यक्तरूपे स्थितः भवति ततः एव अव्यक्तस्तरेण वार्तालापं करोति। अस्मिन् क्रमे कथयति अग्रे कृष्णः।
न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम्, भूतभृन्न च भूतस्थो ममात्मा भूतभावनः।
वस्तुतस्तु सर्वे भूताः मयि न स्थिताः सन्ति, कुतो हि ते सन्ति मरणधर्माणः प्रकृत्याश्रिताश्च, किन्तु मम योगमायायाः परमैश्वर्यम् अवलोकय, यत् प्राणिनामुत्पन्नकर्ता पोषणकर्ता च ममात्मा भूतेषु न स्थितः अस्ति। अहम् आत्मस्वरूपोऽस्मि, अत एव तेषु भूतेषु नास्मि स्थितः। महापुरुषः यस्मिन् अव्यक्तस्वरूपे तिष्ठति तत एव शरीरं विहाय तत्स्थरेण इति वार्तां करोति। अयमेव योगस्य प्रभावः। इयं सुस्पष्टयितुं योगेश्वरः श्रीकृष्णः प्रददाति दृष्टान्तम्।
यथाकाशस्थितो नित्यं वायुः सर्वत्र गोमः, तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय।
यथा आकाशात् समुत्पन्नः वायुः आकाशे सदैव राजते, किन्तु आकाशं मलिनं कर्तुं न प्रभवति, यथार्थतः तथैव सर्वे भूताः मयि स्थिताः सन्ति। इत्थं जानीहि, इत्थमेव आकाशवद् अहं निर्लेपोऽस्मि, ते भूताः मां मलिनं कर्तुं न सक्षमाः। प्रश्नः पूर्णताम् अगच्छत्। एष एव योगस्य प्रभावः। इदानीं योगी किं करोति? अत उपरि वदति कृष्णः।
सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकां, कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम्।
अर्जुन, कल्पस्य विलयकाले सर्वे मम प्रकृतिम् अर्थात् स्वभावं लभन्ते, तथा च कल्पादौ तान् भूतान् अहं वारं वारं विसृजामि, नाम विशेषरूपेण सर्जनं करोमि। आसन्तु सर्वे भूताः प्रथमतः एव, किन्तु विकृताः आसन्, तानेव विरचयामि सज्जयामि। ये सन्ति अचेताः तान् जागरयामि, कल्पार्थं प्रेरयामि. कल्पस्य तात्पर्यमस्ति उत्थानोन्मुखं परिवर्तनम्. आसुरीसम्पदः निःसृत्य यथा यथा पुरुषः दैवीसम्पदि प्रविशति, अत एव कल्पारम्भः यदा च ईश्वरभावं प्राप्नोति जीवः तदैव कल्पक्षयः. स्वकर्म पूरयित्वा कल्पः विलीयते. भजनस्य आरम्भः कल्पस्यादिः भजनस्य पराकाष्ठा च, यत्र लक्ष्यं विदितं भवति स एव कल्पान्तः. यदायं प्रत्यगात्मा योनिनां कारणभूतरागद्वेषादिभ्यः मुक्तिं लब्ध्वा स्वशाश्वतरूपे स्थिरो भवेत्, अमुमेव विषयं श्रीकृष्णः कथयति यत् स मम प्रकृतिं प्राप्तः भवति. यः महापुरुषः प्रकृतेः विलयं कृत्वा स्वरूपे प्रवेशं प्राप्तवान्, तस्य कीदृशी प्रकृतिः? किं तस्मिन् प्रकृतिः शेषा वर्तते? नहि. तृतीयाध्यायस्य 33 श्लोके योगेश्वरेण श्रीकृष्णेनोक्तमासीत् यत् सर्वे प्राणिनः स्वप्रकृतिं प्राप्नुवन्ति. यादृशः तेषामुपरि प्रकृतिगुणानां प्रभावः अस्ति ते तथा कुर्वन्ति च. ज्ञानवानपि प्रत्यक्षदर्शनेन सह बोधविशिष्टः ज्ञानी अपि स्वप्रकृत्यनुसारेण चेष्टां करोति. अयं ज्ञानी पृष्ठानुवर्तिनां कल्याणाय करोति चेष्टां. पूर्णज्ञानिनः तत्त्वे स्थितस्य महापुरुषस्य दिनचर्यैव तस्य प्रकृतिः अस्ति. सः स्वस्यस्मिन् प्रभावे प्रवर्तते. कल्पक्षये जनाः महापुरुषस्य इमां दिनचर्यां भजन्ते. महापुरुषस्य अस्य कृतिः तु अस्योपरि पुनः प्रकाशं करोति.
प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः भूतग्राममिमं कृत्स्नम् अवशं प्रकृतेर्वशात्.
स्वं प्रकृतिम् अर्थात् महापुरुषस्य दिनचर्यां स्वीकृत्य प्रकृतेर्वशात् स्वस्वभावे स्थितप्रकृतिगुणैः परवशः सन् इमं सम्पूर्णं भूतसमुदायम् अहं भूयो भूयः विसृजामि, नाम विशेषसर्जनं करोमि, विशेषरूपेण सज्जयामि एतान् स्वस्वरूपोन्मुखं वर्धनाय प्रेरयामि. तदा तु अपि भवान् तत्कर्मबन्धनबद्धोऽस्ति?
न च मां तानि कर्माणि निबध्नन्ति धनञ्जय, उदासीनवदासीनम् असक्तं तेषु कर्मसु.
चतुर्थाध्याये 9 योगेश्वरेण श्रीकृष्णेन कथितमासीत् यत् महापुरुषस्य कार्यप्रणाली अलौकिकी भवति. अस्मिन् अध्याये तेनोक्तम् अहम् अव्यक्तरूपेण करोमि, अत्रापि तदेव विषयम् उपस्थापयति यत् धनञ्जय यानि कर्माणि अहम् अदृश्यरूपेण करोमि तेषु नास्ति ममासक्तिः. उदासीनेन सदृशस्य स्थितस्य मम परमात्मनः स्वरूपं तानि कर्माणि न बध्नन्ति. कुतः? कर्मणः परिणामे यल्लक्ष्यं मिलति अहं तस्मिन् स्थितोऽस्मि, अत एव तानि कर्तुं नाहं विवशः बाध्यः वा? अयन्तु स्वभावेन सह युक्त प्रकृति कार्यस्य प्रश्नः आसीत्। महापुरुषस्य दिनचर्या रचना च आसीत्। इदानीं मम अध्यासेन मायायां रचनां करोति तत् किमस्ति? सोऽपि एकः कल्पः।
मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् हेतुनानेन कौन्तेय जगत् विपरिवर्तते।
अर्जुन, ममाध्यक्षे ममोपस्थितौ सर्वत्र व्याप्ते मयि अध्यासेन इयं माया या त्रिगुणमयी प्रकृतिः अष्टधा मूलप्रकृतिः चेतनश्च तथा चराचरसहितं जगद्रचयति यः क्षुद्रः कल्पः अस्ति। अस्मात् कारणाच्च संसारोऽयं जन्ममरणस्य चक्रे भ्रमति। प्रकृतेरयं क्षुद्रः कल्पः यस्मिन् कालस्य परिवर्तनमस्ति ममाध्यासेनैव प्रकृतिरेव करोति, नाहं करोमि। किन्तु सप्तमश्लोकस्य कल्पः आराधनायाः सञ्चारमेवं पूर्तिपर्यन्तं मार्गदर्शनवान् कल्पः यं महापुरुषः स्वयं कुरुति। एकस्थाने स भगवान् स्वयं कर्तास्ति, यत्र विशेषरूपेण सर्जनं करोति। अत्र तु कर्ता प्रकृतिः अस्ति, या केवलं ममाध्यासेनैव क्षणिकं परिवर्तनं करोति। यस्मिन् परिवर्तने शरीरपरिवर्तनं कालपरिवर्तनं युगादिपरिवर्तनादीनि च आयान्ति। एवं व्याप्तप्रभावे सम्पन्ने सत्यपि मूढजनाः मां न जानन्ति, यथा
अवजानन्ति मां मूढा मानुषीं तनुमाश्रितं परं भावमजानन्तो मम भूतमहेश्वरम्।
सर्वेषां भूतानां महान्तमीश्वरस्वरूपं मम परमभावम् अजानानाः मूढजनाः मां मानवशरीरं तुच्छञ्च कलयन्ति। सम्पूर्णप्राणिनाम् ईश्वरस्यापि यः महान् ईश्वरः अस्ति तस्मिन् परमभावे अहं स्थितः अस्मि। किन्तु अस्मि मानवशरीरधारी, मूढाः नेदं रहस्यम् अवगच्छन्ति। ते मां मनुष्यम् उक्त्वा सम्बोधयन्ति, तेषां दोषः अपि किमस्ति? यदा ते दृष्टिपातं कुर्वन्ति तदा महापुरुषस्य शरीरमेव दृष्टिगतं भवति। कथं ते जानन्तु यद् भवान् महेश्वरभावे स्थितः अस्ति? ते कथं द्रष्टुं शक्नुवन्ति? अतः उपरि कथयति कृष्णः।
मोघाशा मोघकर्माणो मोघज्ञानाविचेतसः राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः।
ते वृथाशाः नाम येषाम् आशा न कदापि पूर्णतामेति। वृथा कर्म नाम बन्धनकारकं कर्म, वृथाज्ञानं नाम यद् वस्तुतः ज्ञानं नास्ति, विचेतसः नाम विशेषरूपेण अचेताः सन्तः राक्षसानाम् असुराणामिव मोहितस्वभावं धारणं कृतवन्तः सन्ति, अर्थात् आसुरीस्वभाववन्तः वर्तन्ते। एतदर्थं मां मनुष्यं जानन्ति। असुरराक्षसयोः च मनसः एकः स्वभावः अस्ति, न तु काचित् जातिः योनिर्वा। आसुरी स्वभाववन्तः माम् न ज्ञातुं शक्नुवन्ति, किन्तु महापुरुषाः माम् जानन्ति भजन्ति च।
महात्मानस्तु माम् पार्थ, दैवीं प्रकृतिमाश्रिताः, भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्।
हे पार्थ, दैवी प्रकृतेः नाम दैवी सम्पदः समाश्रिताः महात्मजनाः माम् सर्वभूतानाम् आदिकारणम् अव्यक्तम् अक्षरञ्च बुद्ध्वा अनन्यमनसा मनसः अन्तराले कमप्यन्यम् स्थानम् न दत्त्वा केवलम् मयि श्रद्धाम् निधाय अनवरतम् माम् भजन्ते। कथम् भजन्ति? अत उपरि कथयति कृष्णः।
सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः, नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते।
ते निरन्तरं चिन्तनव्रते निश्चलाः भवन्तः सन्तः मम गुणानां चिन्तनं कुर्वन्ति, मम प्राप्तेः यत्नं विदधति, मां च वारं वारम् अभिवादयन् सदैव मत्संयुक्तः भूत्वा अनन्यभक्त्या माम् उपासते, निरन्तरं संलग्नाश्च भवन्ति। कीदृशीम् उपासनां कुर्वन्ति? कीदृशश्चायं कीर्तिमानः? काचिदपरोपासना नहि, प्रत्युत तदेव यज्ञः यस्य वर्णनं सम्यक् प्रपञ्चितम्। तामेव आराधनाम् इह समासतः योगेश्वरः श्रीकृष्णः पुनरावर्तयति।
ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते, एकत्वेन पृथक्त्वेन बहुधा विश्वतो मुखम्।
तेषु केचन तु सर्वव्याप्तं विराजं परमात्मानं माम् ज्ञानयज्ञद्वारा यजन्ते, अर्थात् स्वलाभालाभौ शक्तिं चावगत्य कस्मिंश्चित् नियतकर्मयज्ञे प्रवर्तन्ते। केचन तु मामेकत्वभावेन समुपासते, यद् माम् अस्मिन्नैवैकत्वप्राप्तिः, अपरे च माम् पृथक्कृत्य मयि समर्पिता भूत्वा निष्कामसेवाभावेन माम् उपासते। तथा अन्यप्रकारेणापि बहवः जनाः भजन्ति। कुतो हि एकस्यैव यज्ञस्य इमे उच्चावचाः स्तराः सन्ति। यज्ञस्य आरम्भः सेवया भवति, किन्तु यज्ञस्य अनुष्ठानं भवति कथम्? योगेश्वरः कृष्णः कथयति, यज्ञम् अहं करोमि, यदि महापुरुषः रथी न स्यात् तदा यज्ञः न पूरयिष्यति। तस्यैव निर्देशने साधकः ज्ञातुं शक्नोति यत् साम्प्रतं स तस्मिन् स्तरे वर्तते कियत् यावत् तस्य गतिः। वस्तुतः यज्ञकर्ता कोऽस्ति? अत उपरि कथयति कृष्णः।
अहं क्रतुरहं यज्ञः, स्वधाहमहमौषधम्, मन्त्रोऽहमहमेवाज्यम्, अहमग्निरहं हुतम्।
अहं कर्तास्मि। वस्तुतः कर्तुः पृष्ठे प्रेरकरूपेण सर्वदा सञ्चालयन् कर्ता तदिष्टे वास्ति। कर्ताद्वारा यः पारं पारयति तत् मम अनुदानमस्ति। अहमेव यज्ञः अस्मि। यज्ञस्य आराधनायाः विधिविशेषः अस्ति। पूर्तिकाले यज्ञः यस्य सर्जनं करोति तस्य अमृतस्य पानकर्ता पुरुषः सनातने ब्रह्मणि प्रवेशं प्राप्नोति। अहं स्वधास्मि अर्थात् अतीतस्यान्तःसंस्काराणां विलयकरणं तान् संतर्पणं ममानुदानम् अस्ति। अहमेव भवरोगस्य निवारकं महौषधमस्मि। मां लब्ध्वा जनाः भवरोगात् विनिवृत्ताः भवन्ति। अहं मन्त्रोऽस्मि। मनसः श्वासान्तराले निरोधनं मम अनुदानमस्ति। अस्यां निरोधक्रियायां तीव्रतानायकं वस्तु आज्यं नाम हविः अपि अहमेवास्मि। ममैव प्रकाशे मनसः सर्वाः प्रवृत्तयः विलीयन्ते, तथा हवनम् अर्थात् समर्पणम् अपि अहमेवास्मि। अत्र योगेश्वरः श्रीकृष्णः भूयो भूयः अहमस्मि इति कथयन् अस्ति। अस्याशयः एतावान् मात्रमस्ति यद् अहमेव प्रेरकरूपेण आत्मनः अभिन्नो भूत्वा सन्नद्धो भवामि, तथा निरन्तरं निर्णयं ददानः योगक्रियापूर्तिं कारयामि। एतस्यैव नाम विज्ञानमस्ति। पूज्य महाराजाः कथयन्ति स्म यत् यावदिष्टदेवः सारथी भूत्वा श्वासप्रश्वासयोः अवरोधं कर्तुं नारभेत तावत् भजनारम्भः न भवति। कश्चित् कियदपि नेत्रफलकनिरोधनं विदधीत, भजनं कुर्यात्, शरीरं तापयेत्, किन्तु यावद् यस्य परमात्मनः मम कामना अस्ति स यस्मिन् धरातले अहं स्थितोऽस्मि तस्मिन् धरातले समवतीर्य आत्माभिन्नो भूत्वा जागृतं न भवति तावत् सच्चामुचं मात्रायां भजनस्य स्वरूपं बुद्धौ न प्रविशति। अत एव महाराजाः कथयन्ति स्म मम स्वरूपं गृहाण अहं सर्वं दास्यामि। श्रीकृष्णः कथयति
पिताहमस्य जगतो माता धाता पितामह वेद्यं पवित्रमोकार ऋक्सामयजुरेव च।
अर्जुन, अहमेव सम्पूर्णजगतः धाता अर्थात् धारणकर्ता अस्मि, पिता अर्थात् पालनकर्ता अस्मि, माता अर्थात् उत्पन्नकर्ता अस्मि, पितामहः अर्थात् मूलोद्गमोऽस्मि, यत्र सर्वे प्रवेशं प्राप्नुवन्ति। ज्ञातुं योग्यश्च पवित्रः ओङ्कारः अर्थात् अहम् आकारः इति ओङ्कारः स परमात्मा मम स्वरूपे निहितोऽस्ति। सोऽहं तत्त्वमसि इत्यादि वचांसि परस्परं पर्यायभूतानि सन्ति। एवं बोद्धव्यस्वरूपः अहमस्मि। ऋक् अर्थात् सम्पूर्णा प्रार्थना, साम अर्थात् समत्वप्रदायिका प्रक्रिया, यजुः अर्थात् यजनस्य विधिविशेषः अपि अहमस्मि। योगानुष्ठानस्य उक्तानि त्रीणि आवश्यकाङ्गानि मत्तः एव जायन्ते।
गतिर्भर्ता प्रभु साक्षी निवास शरणं सुहृत् प्रभव प्रलय स्थानं निधानं बीजमव्ययम्।
अर्जुन, गति ही अर्थात् प्राप्तव्या परमगति ही भर्ता नाम भरणपोषणकर्ता सर्वेषां स्वामी साक्षी अर्थात द्रष्टारूपेण स्थितः सर्वस्य ज्ञाता सर्वस्य शरणप्रदं वासस्थानं अहैतुक प्रेमिमित्रं उत्पत्तिप्रलययोः अर्थात् शुभाशुभसंस्काराणां विलयाश्रयः अविनाशी कारणं अहमेवास्मि अर्थात् अन्ततो गत्वा यासु प्रवेशो मिलति ताः सर्वाः विभूतयः अहमस्मि
तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन
अहं सूर्यरूपेण तपामि अहं वृष्टिम् आकर्षामि मृत्योः परे अमृततत्त्वं तथा मृत्युः सदसच्च सर्वम् अहमेवास्मि अर्थात् यः परमं प्रकाशं ददाति सः सूर्योऽपि अहमेवास्मि यदा कदा भजमानाः भक्ताः माम् असत् अपि मन्यन्ते ते मृत्युं प्राप्नुवन्ति इत्थं कथयति कृष्णः
त्रैविद्या मां सोमपाः भूतपापाः यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते ते पुण्यमासाद्य सुरेन्द्रलोकम् अश्नन्ति दिव्यां दिवि देवभोगा
आराधना विद्यायाः ऋक्सामयजुस्वरूपाणि यानि त्रीण्यङ्गानि सन्ति यैः अङ्गैः प्रार्थना समत्व यजनक्रियायाः आचरणं कर्तारः सोम अर्थात् चन्द्रमसः क्षीणप्रकाशप्रापकाः पापान् मुक्ताः भूत्वा पुरुषाः पवित्राः सन्तः तस्यैव यज्ञस्य निर्धारितप्रक्रियाद्वारा माम् इष्टरूपेण परिपूज्य स्वर्गाय प्रार्थयन्ति इयम् एव असतः कामनास्ति अनया ते मृत्युं लभन्ते तेषाञ्च पुनर्जन्म भवति यथा पूर्वश्लोके योगेश्वरः कथितवान् ते पूजयन्ति तु मामेव पूर्वोक्तनिर्धारितविधिना किन्तु फलरूपेण स्वर्गं याचन्ते ते पुरुषाः स्वपुण्यस्य फलस्वरूपम् इन्द्रलोकं प्राप्य स्वर्गे देवतानां सुलभं दिव्यभोगं भुञ्जन्ति अर्थात् इमं भोगमपि अहमेव ददामि
ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति एवं त्रयी धर्ममनुप्रपन्ना गतागतं कामकामालभन्ते
ते उपर्युक्तं विशालं स्वर्गसुखं भोगाञ्च भुङ्क्त्वा पुण्यस्य क्षये जाते सति पुनः मृत्युलोके जन्म गृहीत्वा पुनः म्रियन्ते अनेन प्रकारेण त्रयीधर्मं नाम प्रार्थनासमत्वयजनानां त्रयाणां विधीनां मध्यतः एकेनैव यज्ञानुष्ठानकर्तारः मम शरणमागताः अपि कामनायुक्ताः पुरुषाः वारं वारं जन्ममृत्युक्लेशं वहन्ति किन्तु तेषां मूलनाशः कदापि न भवति कुतो हि अस्मिन् योगपथे बीजस्य नाशः न भवति किन्तु ये कामपि कामनां न कामयन्ते ते किं प्राप्नुवन्ति
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।
अनन्या भावेन मयि स्थिताः ये भक्तजनाः मां परमात्मस्वरूपं निरन्तरं ध्यायन्ति पर्युपासते नाम लेशमात्रत्रुटिं न कृत्वा माम् अर्चन्ति तेषां नित्यम् एकीभावेन संयुक्तानां पुरुषाणां योगक्षेमम् अहं स्वयं वहामि। अर्थात् तेषां योगस्य सुरक्षायाः च दायित्वं स्वपाणौ धारयामि। एवं सत्यपि जनाः अन्यदेवान् भजन्ते।
येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विता तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम्।
कौन्तेय श्रद्धायुक्ताः ये भक्ताः भिन्नान् भिन्नान् देवान् पूजयन्ति तेऽपि माम् एव अर्चन्ति। कुतो हि तत्र देवता नाम्नः कस्यापि वस्तुनः नास्तित्वं भवति, किन्तु तेषां तत् पूजनं विधिहीनमस्ति, मम प्राप्तिविधेः विरहितमस्ति। अत्र योगेश्वरः श्रीकृष्णः द्वितीयवारं देवानां प्रकरणं जग्राह। सर्वप्रथमं सप्तमाध्यायस्य विंशतितमश्लोकात् त्रयोविंशतितमश्लोकं यावत् तेनोक्तम् अर्जुन कामनाभिः येषां ज्ञानस्य अपहरणम् अभवत् एवं भूताः मूढबुद्धिपुरुषाः अन्यदेवान् पूजयन्ति। यत्र पूजयन्ति तत्र देवाभिधाना कापि सक्षमा सत्ता न वर्तते, परन्तु पिप्पले प्रस्तरे भूते भवान्याम् अथवा अन्यत्र यत्र कुत्रापि तेषां श्रद्धा विनम्रायते तत्र न कोऽपि देवः। अहमेव सर्वत्र वर्ते, तत्रापि अहमेव उपस्थितः भूत्वा तेषां श्रद्धां तेषु स्थानेषु स्थिरां करोमि। अहमेव फलस्यापि विधानं करोमि, फलं यच्छामि च। फलं निश्चितरूपेण मिलति, किन्तु तत् फलं नश्वरमस्ति। अद्यास्ति तर्हि श्वः भोगे आगमिष्यति, नङ्क्षति च। यदा तु मम भक्तः नष्टः न भवति। अतस्ते मूढबुद्धयः येषां ज्ञानस्य अपहरणं जातं ते एव अन्यदेवानां पूजां विदधति। प्रस्तुताध्यायस्य त्रयोविंशतिश्लोकतः पञ्चविंशतिश्लोकं यावत् योगेश्वरः श्रीकृष्णः पुनरावृत्तिं करोति यत् अर्जुन ये श्रद्धया अन्यान् देवान् यजन्ते ते मामेव अभिवन्दन्ते, किन्तु एतत् पूजनं विधिविगर्हितं। तत्र देवता नाम्नः न किमपि सशक्तं वस्तु, तेषां प्राप्तिविधिः अलीका। साम्प्रतमुदेति प्रश्नः यदा ते प्रकारान्तरेण भवन्तमेव पूजयन्ति फलमपि च लभन्ते तर्हि इतरदेवपूजने को दोषः?
अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च वन्ति ते।
सम्पूर्णयज्ञानाम् अहमेव भोक्ता, अर्थात् यज्ञाः यस्मिन् विलीयन्ते यज्ञस्य परिणामे यत्किञ्चिन् मिलति सः अहमस्मि। स्वामी च अहमेवास्मि, परंतु ते माम तत्वतः सम्यक न जानन्ति, अतएव चवन्ति पतन्ति च। अर्थात ते काचिद अन्येषु देवेषु पतन्ति, तत्वतः ते न जानन्ति तावत् कामनाभिः अपि पतन्ति, तेषां का गतिः।
यान्ति देवव्रता देवान् पितॄन्यान्ति पितृव्रताः, भूतानि यान्ति भूतेज्या, यान्ति मद्याजिनोपिमा।
अर्जुन, देवानां पूजकाः देवान् प्राप्नुवन्ति, देवास्तु परिवर्तितसत्तास्वरूपाः सन्ति, श्वः न स्थास्यन्ति, ते स्वसत्कर्मानुसारेण जीवनं यापयन्ति। पितॄणां पूजकाः पितॄन् लभन्ते, अर्थात् अतीतजाले भवन्ति निबद्धाः, भूतानां पूजकाः भवन्ति भूताः, शरीरं धारयन्ति, मम च भक्ताः मां प्राप्नुवन्ति, ते मम साक्षात् स्वरूपाः सन्ति, तेषां पतनं न भवति। एतदेव न हि मम पूजायाः विधानमपि सरलं सुकरं सुलभं सुगमं चास्ति।
पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः।
भक्तेः आरम्भः इत एव अस्ति यत् पत्रं पुष्पं फलं तोयं च इत्यादीनि यः कश्चित् भक्तिपूर्वकं मह्यं प्रत्यर्पयति, मनसा समर्पितं पत्रादिकं तस्य भक्तस्य सर्वमहं भुञ्जामि, अर्थात् स्वीकरोमि। अत एव
यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम्।
अर्जुन, त्वं यत् कर्म करोषि, यत् खादसि, यद् हवनं करोषि, यत् समर्पणं करोषि, यद् दानं ददासि, मनसा सहितम् इन्द्रियं यन्ममानुरूपं तापयसि, उक्तं सर्वं मह्यं समर्प्य, अर्थात् मां प्रति समर्पितो भूत्वा पूर्वोक्तं सर्वं कुरु। समर्पणक्रियया योगक्षेमस्य दायित्वं अहं स्वयं पालयिष्यामि।
शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः सन्न्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि।
अनेन प्रकारेण सर्वस्वस्य न्यासद्वारेण प्राप्तसन्न्यासयोगेन युक्तः त्वं शुभाशुभफलदायककर्मणां बन्धनेन मुक्तो भूत्वा मां प्राप्स्यसि। उपर्युक्तत्रिषु श्लोकेषु योगेश्वरः श्रीकृष्णः क्रमबद्धसाधनस्य तस्य परिणामस्य च चित्रणं कृतवान्। आदौ पत्रपुष्पजलादीनां पूर्णश्रद्धयार्पणं, द्वितीयश्लोके समर्पितो भूत्वा कर्माचरणं, तृतीये च श्लोके पूर्णसमर्पणेन साकं सर्वस्वत्यागः। एतेषां द्वारेण कर्मबन्धनात् विमुक्तो भविष्यसि। मुक्त्या किं प्राप्स्यसि? उक्तवान् मां प्राप्स्यसि। अत्र मुक्तिः भुक्तिः च परस्परमेका द्वितीयायाः पूरिके स्तः। भवतः प्राप्तिरेव मुक्तिः, तर्हि तेन को लाभः? अत उपरि कथयति कृष्णः।
समोहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः, ये भजन्ति तु मां भक्त्या, महि ते तेषु चाप्यहम्।
सृष्टौ न मम कश्चित् प्रियः न च द्वेष्यः, किन्तु यः अनन्यभक्तः अस्ति स मयि, अहं च तस्मिन् वसामि। अयमेष ममैकमात्रं सम्बन्धः, तस्मिन्नेव परिपूर्णः भवामि। मयि भक्ते च न कोऽप्यन्तरः शिष्यते। तदा तु बहुभागशालिनः भक्ताः एवं भजनं कुर्वन्तः भविष्यन्ति। भजनस्य अधिकारः कस्य? अत उपरि योगेश्वरः कथयति।
अपि चेत् सुदुराचारो भजते मामनन्यभाक्, साधुरेव समन्तव्यः, सम्यग् व्यवसितो हि सः।
जघन्यपापकर्ता दुराचारः माम् अनन्यभावेन अर्थात् अन्यन्न मदतिरिक्तं कमपि अन्यं वस्तुदेवं वा न भजित्वा केवलं माम् एव अनवरतं भजति, स साधुरेव माननीयः। इदानीं सः साधुत्वम् अप्राप्तः अस्ति, किन्तु तस्य साधुत्वसिद्धौ सन्देहोऽपि न वर्तते। कस्माधि? सः यथार्थनिश्चयेन संलग्नः अभवत्। अतो भजनं भवानपि कर्तुं शक्नोति। स समयेन, नाम हिन्दीभाषायां, बशर्ते यद् भवान् मनुष्यो भवेत्। यतो हि मनुष्य एव यथार्थनिश्चयवान् भवति। गीता पापिनामुद्धारं करोति।
क्षिप्रं भवति धर्मात्मा, शश्वच्छान्तिं निगच्छति, कौन्तेय प्रतिजानीहि, न मे भक्तः प्रणश्यति।
तथा च पथिकः अस्य भजनस्य प्रभावतः स दुराचारोऽपि शीघ्रमेव धार्मिकः भवति। परमधर्मेण परमात्मना संयुज्यते, तथा सर्वदैव स्थातुमर्हां परमशान्तिं प्राप्नोति। कौन्तेय, त्वं निश्चयपूर्वकं जानीहि यन् मम भक्तः कदापि न नश्यति। यथैकस्मिन् जन्मनि पारं न आप्तवान्, तर्हि अग्रिमे जन्मनि तेनैव साधनेन शीघ्रमेव परमशान्तिं लभते। अतः सदाचारस्य दुराचारस्य च सर्वेषां भजनस्य अधिकारः अस्ति। एतदेव नहि, अपि तु
मां हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः, स्त्रियो वैश्यास्तथा शूद्राः, तेऽपि यान्ति परां गतिम्।
पार्थ, स्त्री वैश्य शूद्रादयः ये केचन पापयोनयः, ते सर्वे माम् आश्रित्य परमां गतिं लभन्ते। अतः गीतेयं मनुष्यमात्रस्य हिताय अस्ति। कामं स किमपि कुर्वन् भवेत्, कुत्रापि गृहीतजन्मा स्यात्, सर्वेषां कृते गीता इयम् एकसमानकल्याणस्य उपदेशं करोति। गीता सार्वभौमा वर्तते। पापयोनिः नाम षोडशे अध्याये कथितम् आसुरीवृत्तेः लक्षणानाम् अन्तर्गतम् भगवता प्रतिपादितम् यत् शास्त्रविधिं विहाय नाममात्रस्य यज्ञैः स दम्भम् ये यजनं कुर्वन्ति ते नराधमाः। यज्ञस्तु वर्तते एव नहि, किन्तु नामकरणं कृतवन्तः। स दम्भं च यजन्ते, स क्रूरकर्मा पापाचारः अस्ति। वैश्यशूद्रादयः भगवत्पथः सोपानानि सन्ति। नारीणां प्रति कदाचित् हीनतायाः भावना आसीत्, किन्तु योगप्रक्रियायां स्त्रीपुरुषयोः समानमेव प्रवेशः अस्ति।
किं पुनर्ब्राह्मणा पुण्या भक्ता राजर्षयस्तथा अनित्यमसुखं लोकम् इमं प्राप्य भजस्व माम्।
पुनस्तु ब्राह्मण राजर्षि क्षत्रिय भक्तानां कृते किमस्ति कथनीयम्? ब्राह्मणः एकस्याः अवस्थायाः विशेषः एव, यस्मिन् ब्रह्मणि प्रवेशं दापयितुं सर्वाः योग्यताः विद्यमानाः मिलन्ति। शान्तेः आर्जवस्य अनुभवस्य उपलब्धेः ध्यानस्य इष्टस्य च निर्देशेन यस्मिन् गन्तुं क्षमता विद्यते इयमेव ब्राह्मणस्य अवस्था। राजर्षिः क्षत्रियेषु ऋद्धीनां सिद्धीनां च सञ्चारः, शौर्यस्य स्वामिभावस्य अपलायनस्य स्वभावः वर्तते। अस्मिन् योगस्तरे प्राप्ताः योगिनः तु पारयन्ति एव, तेषां कृते नास्ति किमपि वक्तव्यम्। अत एव अर्जुन, त्वं सुखरहितं क्षणभङ्गुरम् इदं मनुष्यशरीरं प्राप्य ममैव भजनं कुरु। अस्य नश्वरशरीरस्य ममत्वे पोषणे समयं नष्टं मा कार्षीः। योगेश्वरः श्रीकृष्णः अत्र चतुर्थवारं ब्राह्मणक्षत्रियवैश्यशूद्राणां चर्चां कृतवान्। द्वितीयाध्याये तेनोक्तं यत् क्षत्रियस्य कृते युद्धात् उत्तमं कल्याणस्य किमपि मार्गं नास्ति। तृतीयाध्याये तेनोक्तं यत् स्वधर्मे निधनमपि श्रेयस्करम् अस्ति। चतुर्थाध्याये तेनोक्तं यत् वर्णचतुष्टयस्य रचनाम् अहम् अकरवम्। किं तर्हि मनुष्यान् चतसृषु जातिषु विभाजितवान्? उक्तं तेन, नहि, गुणकर्मविभागशः नाम गुणस्य मापदण्डेन कर्माणि चतसृषु श्रेणिषु विभाजितानि। श्रीकृष्णानुसारेण कर्मैकमात्रं यज्ञस्य प्रक्रियास्ति, अतः अस्य यज्ञस्य कर्तारः चतुष्प्रकारकाः सन्ति जनाः। प्रवेशकाले यज्ञकर्ता अयं शूद्रः अस्ति, अल्पज्ञः अस्ति। किञ्चित् कर्मसम्पादनानन्तरं काचित् क्षमता समायाता, आत्मिकसम्पत्तेः समभवत्सङ्ग्रहः, तदा तु तत्रैव यज्ञकर्ता अभवत् वैश्यः। इत उन्नते स्तरे प्रकृतेः गुणत्रयस्य भेदनस्य समायातायां क्षमतायाम् असौ साधकः क्षत्रियश्रेणीको भवति। यदा च अस्य साधकस्य स्वभावे ब्रह्मणि प्रवेशदायिन्यः योग्यताः संविशन्ति, तदा स ब्राह्मणोऽस्ति। वैश्यशूद्रयोः अपेक्षया क्षत्रियब्राह्मणश्रेणिकश्च साधकः परमपदप्राप्तेः अधिकं समीपम् अस्ति। शूद्रवैश्यश्चापि तस्मिन् ब्रह्मणि प्रवेशं लब्ध्वा शान्तिमेष्यतः पुनरितः श्रेष्ठावस्थावताम् किमस्ति कथनीयम्? तेषाम् कृते तु सुनिश्चितैव प्राप्तिः। गीता नाम यासाम् उपनिषदाम् सारसर्वस्वम् अस्ति। तासु ब्रह्मविदुषी महिलानामाख्यानानि सन्ति चर्चितानि। तथा कथितधर्मभीरवः, रूढिवादिनः, वेदाध्ययनस्य कस्याधिकारः, कस्यच नाधिकारः इति व्यवस्थां दातुं वादविवादकर्तारः कुर्वन्तु वादविवादम्। योगेश्वरस्य श्रीकृष्णस्य स्पष्टमस्ति समुद्घोषः यत् यज्ञार्थकर्मणः निर्धारितक्रियायां नार्यः नराश्च सर्वे प्रवेष्टुं शक्नुवन्ति। अतः कृष्णः भजनस्य धारणार्थं प्रोत्साहनं प्रददाति।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु, मामे वैश्यसि उक्त्वैवम् आत्मानं मत्परायणः।
अर्जुन, मम मनोनुकूलं तव मनः भवेत्, मदतिरिक्तम् अन्ये भावाः तव मनसि नागन्तुं शक्नुयुः। त्वं मम अनन्यभक्तः असि, निरन्तरं चिन्तने संलग्नो भव, श्रद्धासहितः निरन्तरं ममैव पूजनं विधेहि, मामेव च नमस्कुरु। अनेन प्रकारेण मम शरणागतः स्वात्मानम् एकीभावेन मयि सन्निवेश्य त्वं मामेव प्राप्स्यसि, अर्थात् मया सह एकतां प्राप्तं करिष्यसि। निष्कर्षः। अस्य अध्यायस्य आरम्भे श्रीकृष्णेनोक्तम्, अर्जुन, तव दोषरहितस्य भक्तस्य कृते इदं ज्ञानम् अहं विज्ञानसहितं वक्ष्यामि। यज्ज्ञात्वा किमपि ज्ञेयं न अवशिष्यति। इदं ज्ञानं ज्ञात्वा त्वं संसारबन्धनात् मोक्षसि। इदं ज्ञानं सम्पूर्णविद्यानां राजपदं धत्ते। विद्या सा अस्ति या परमब्रह्मणि प्रवेशं दापयेत्। इदं ज्ञानं तस्याः विद्यायाः अपि राजा अस्ति, अर्थात् निश्चितरूपेण कल्याणकारिका अस्ति। इदं ज्ञानं प्रत्यक्षफलदायकं, साधनायां सरलम् अनश्वरं चास्ति। अल्पमपि एतस्य साधनेन साधकः पारं लगेत्, तदा अस्य ज्ञानस्य कदापि नाशः न भवति। प्रत्युदस्य ज्ञानस्य प्रभावतः स साधकः परमश्रेयः यावत् प्राप्नोति। किन्तु अस्मिन् ज्ञानराजे अस्ति एकः पणः, समयः, हिन्दीभाषायां शर्त वा। श्रद्धाविहीनाः पुरुषाः परमगतिम् अप्राप्य संसारचक्रे पर्यटन्ति। योगेश्वरः श्रीकृष्णः योगस्य ऐश्वर्यस्य अपि उपरि प्रकाशं प्रससार। दुःखस्य संयोगस्य वियोगः एव योगः कथ्यते, अर्थात् यः संसारस्य संयोगवियोगाभ्यां सर्वथोन्मुक्तो वर्तते तस्य अस्ति नाम योगः। परमतत्त्वस्य परमात्मनः मीलनस्य नाम अस्ति योगः। परमात्मनः प्राप्तिरेव योगस्य पराकाष्ठा अस्ति। यः अस्मिन् योगे प्रवेशं प्राप्तवान् तस्य योगिनः प्रभावम् अवलोकय, यत् सम्पूर्णजीवानां स्वामी पोषणकर्तापि ममात्मा तेषु भूतेषु नास्ति स्थितः। अहं आत्मस्वरूपे स्थितोऽस्मि स एवास्मि यथाकाशे समुत्पन्नः वायुः गगने एव विराजते किन्तु गगनं मलिनं कर्तुं न पारयति तेनैव प्रकारेण सम्पूर्णभूतेषु संस्थितोऽस्मि किन्तु अहं न तेषु लिप्तः अस्मि अर्जुन कल्पादौ अहं भूतान् विशेषप्रकारेण रचयामि सुसज्जयामि कल्पस्य च पूर्तिकाले सर्वे भूताः मम प्रकृतिम् अर्थात् योगारूढमहापुरुषस्य दिनचर्यां तेषाम् अव्यक्तभावञ्च प्राप्ताः भवन्ति यद्यपि महापुरुषाः प्रकृतितः पृथक् सन्ति किन्तु प्राप्तेः अनन्तरं स्वभावे स्वयं स्थितः भूत्वा लोकसङ्ग्रहाय यः कार्यं करोति सा तस्य दिनचर्या अस्ति अस्याः दिनचर्यायाः कार्यकलापं तस्य महापुरुषस्य प्रकृतिम् उक्त्वा सम्बोधितम् अस्ति एको रचयिता तु अहमस्मि यः भूतान् कल्पाय प्रेरयामि अपरा रचयित्री त्रिगुणमयी प्रकृतिः अस्ति या ममाध्यासेन चराचरसहितं भूतं सृजति अयमपि एकः कल्पः यस्मिन् शरीरस्य परिवर्तनं स्वभावस्य परिवर्तनं कालस्य परिवर्तनञ्च निहितमस्ति गोस्वामी तुलसीदासः अपि इदं तथ्यं पुष्णाति एकदुष्ट अतिशयदुःखरूपा जावशजीवपराभवकूपा इति रामचरितमानसम् प्रकृतेः द्वौ भेदौ विद्या तथा अविद्या स्वरूपौ स्तः अनयोः अविद्या दुष्टास्ति दुःखरूपास्ति येन विवशो भूत्वा जीवो भवकूपे पतितो जातः यया प्रेरितो भूत्वा जीवः कालस्य कर्मणः स्वभावस्य गुणस्य च परिधौ समायाति द्वितीया विद्यास्ति माया यं कृष्णः कथयति अनया एव अहं रचयामि गोस्वामिनः अनुसारेण प्रभुः रचयति एकरचयी जगगुणबसजाके प्रभु प्रेरित नहि निज बलताके इति रामचरितमानसम् इयं जगतः रचनां करोति यदाश्रिताः गुणाः सन्ति कल्याणकराः गुणाः एकमात्रमीश्वरे वर्तन्ते प्रकृतौ तु गुणाः सन्त्येव नहि सा तु नश्वरा किन्तु विद्यायां प्रभुः एव प्रेरकः भूत्वा करोति सृजनम् अनेन प्रकारेण कल्पस्य भेदद्वयम् एकस्तु वस्तुनः शरीरस्य कालस्य परिवर्तनं कल्पोऽस्ति किन्तु इदं परिवर्तनं प्रकृतिः एव ममाध्यासेन करोति किन्तु इतो महान् कल्पः सः यः आत्मानं निर्मलं स्वरूपं प्रददाति तस्य शृङ्गारं महापुरुषाः कुर्वन्ति ते अचेतान् पुरुषान् सचेतान् कुर्वन्ति भजनस्य आदिः एव अस्य कल्पस्य प्रारम्भः अस्ति भजनस्य च पराकाष्ठा कल्पस्य अन्तः अस्ति यदा अयं कल्पः भवरोगात् पूर्णतया निरोगं कृत्वा शाश्वतब्रह्मणि प्रवेशं दापयति तस्मिन् प्रवेशकाले योगी मम दिनचर्यां मम स्वरूपञ्च लभते प्राप्तेः अनन्तरं महापुरुषस्य आचरणं तस्य प्रकृतिः अस्ति धर्मग्रन्थेषु कथानकाः मिलन्ति यत् चतुर्षु युगेषु व्यतीतेषु एव कल्पः पूर्णः भवति महाप्रलयो भवति। प्रायः जनाः यथार्थरूपेण तथ्यमिदं न अवगच्छन्ति। युगस्य तु अर्थद्वयम्। भवान् पृथगस्ति, आराध्यः पृथगस्ति, तावद् युगधर्मः स्थास्यति। गोस्वामी तुलसीदासः रामचरितमानसस्योत्तरकाण्डे तु अस्य चर्चां कृतवान् अस्ति। यदा तमोगुणः कार्यं करोति, रजोगुणस्तु अल्पमात्रायां भवति। चतसृषु दिक्षु वैरविरोधस्य प्रचारः। एवं भूतः व्यक्तिः कलियुगीनः कथ्यते। स भजनं कर्तुं न पारयति, किन्तु साधनारम्भे युगपरिवर्तनं भवति। रजोगुणस्य यदा भवति वृद्धिः, तमोगुणः क्षीणताम् आपद्यते। किञ्चित् सत्त्वगुणः अपि स्वभावे आगच्छति। हर्षभययोश्च द्वैविध्यम् आपतति। तदा तत्रैव साधकः द्वापारयुगस्य अवस्थायाम् आयाति। क्रमशः सत्त्वगुणस्य बाहुल्ये रजोगुणः स्वल्पो भवति। आराधनाकर्मणि रतिः उत्पद्यते। एवं त्रेतायुगस्य अवस्थायां त्यागस्य स्थितियुक्तः साधकः बहून् यज्ञान् करोति। यज्ञानां जपयज्ञः अस्मि नाम यज्ञश्रेणीकः जपः, यस्य आरोहावरोहः श्वासप्रश्वासोपरि निर्भरः अस्ति, तं कर्तुं क्षमता जागर्ति। यदा मात्रं सत्त्वगुणः शेषायते, विषमता नष्टा, समता समागता, अयं कृतयुगस्य अर्थात् कृतार्थयुगस्य अवस्था, सत्ययुगस्य प्रभावः अस्ति। तस्मिन् समये सर्वे योगिनः विज्ञानिनः भवन्ति, ईश्वरे मिलनशीलाः जायन्ते। स्वाभाविकध्यानग्रहणस्य तेषु क्षमता वरीवर्ति। विवेकी जनाः युगधर्माणां पतनोत्थानं मनस्येव बुध्यन्ते। मनसः निरोधार्थम् अधर्मस्य परित्यागं कृत्वा धर्मे प्रवृत्ताः भवन्ति। निरुद्धमनसोऽपि जाते विलये युगैः साकं साकं कल्पस्य अपि अन्तः भवति। पूर्णतायां प्रवेशं दापयित्वा कल्पः अपि शान्तः भवति। एष एव प्रलयः। तदा प्रकृतिः पुरुषे विलीना भवति। तदनन्तरं महापुरुषस्य या जीवनी नाम जीवनपद्धतिः, सैव तस्य प्रकृतिः अस्ति, तस्य स्वभावः अस्ति। योगेश्वरः श्रीकृष्णः कथयति, अर्जुन, मूढाः जनाः मां न जानन्ति, मां ईश्वराणामपि ईश्वरं तुच्छं मन्यन्ते, साधारणमनुष्यं मानयन्ति। प्रत्येकं महापुरुषस्य जीवनेन सह इयं विडम्बना आसीत् स्थिता, यत् तत्कालीनसमाजः तेषाम् उपेक्षां कृतवान्, तेषां सबलं विरोधः अभवत्। श्रीकृष्णः अपि न अभवत् अस्य नियमस्य अपवादः। स कथयति, यदहं परमभावे स्थितोऽस्मि, किन्तु शरीरं मदीयं मनुष्यस्य एव अस्ति, अतः मूढाः पुरुषाः मां तुच्छं कथयित्वा मनुष्यमुक्त्वा सम्बोधयन्ति। एतादृशाः जनाः वृथाशावन्तः, व्यर्थकर्मवन्तः, व्यर्थज्ञानवन्तः सन्ति। यदि मे कुर्युः किमपि ब्रूयुः, किमपि यथा इत्थं कथयेयुः, न वयं कामनां कुर्मः बभूवुः निष्कामकर्मयोगिनः। ते आसुरी स्वभाववन्तः माम न शक्नुवन्ति बोद्धुम्, किन्तु दैवी संपद्युता जनाः मम ध्यानम् अनन्यभावेन कुर्वन्ति, मम गुणानां सर्वदा चिन्तनं कुर्वन्ति। अनन्योपासनायाः अर्थात् यज्ञार्थकर्मणः द्वौ पन्थानौ स्तः। प्रथमस्तु ज्ञानयज्ञः, अर्थात् स्वबलेन स्वशक्तिं ज्ञात्वा तस्मिन् नियतकर्मणि प्रवर्तनम्। अपरः पन्थाः स्वामीसेवकभावनायाः संस्थापनम्, यस्मिन् सद्गुरुं प्रति समर्पितः भूत्वा तदेव कर्म क्रियते। इत्युभाभ्यां दृष्टिभ्यां जनाः माम् उपासते, किन्तु तेषां माध्यमेन ये पारं गच्छन्ति सः यज्ञः, तद्हवनं, तस्य कर्ता श्रद्धौषधिश्च येन भवरोगस्य चिकित्सा भवति अहमेवास्मि। अन्ततः या गतिर्प्राप्ता भवति सा गतिः अपि अहमस्मि। अमुं यज्ञं जनाः त्रैविद्याः नाम प्रार्थना यजनं समत्वञ्च प्रदानकारकविधिभिः सम्पादनं कुर्वन्ति, किन्तु तस्य प्रतिफलरूपे स्वर्गं कामयन्ते, तदा अहं स्वर्गमपि ददामि। तस्य प्रभावेण ते देवेन्द्रपदं प्राप्तं कुर्वन्ति, दीर्घकालं यावत् ते तत्पदं भुञ्जन्ति, किन्तु पुण्यस्य क्षयिते सति पुनर्जन्म लभन्ते। तेषां क्रियापद्धतिः आसीत् समीचीना, किन्तु भोगकामनायाः शेषत्वात् पुनर्जन्म लभन्ते, अतः भोगानां कामना न कर्तव्या। यः अनन्यभावेन अर्थात् मदतिरिक्तम् अपरः नास्ति कोऽपि, एवं भावेन यः निरन्तरं मम चिन्तनं करोति, भजने मनागपि न्यूनता न भवेत् इति सावधानतया ये भजन्ति, तेषां योगस्य सुरक्षायाः भारम् अहं स्वकराभ्यां धारयामि। इत्येवं भूतहितरते मयि केचन जनाः परित्यज्य मां विभिन्नदेवानाम् अर्चनां कुर्वन्ति, किन्तु सा अर्चना मम प्राप्तेः विधिः नास्ति। नैतत्ते जानन्ति यदहं सम्पूर्णयज्ञानां भुक्तास्मि, अर्थात् तेषां पूजायाः परिणामे नाहं मिलामि, एतस्मात् तेषां पतनं भवति। ते देवता, भूत अथवा पितॄणां कल्पितरूपे निवासं कुर्वन्ति। यदा तु मद्भक्तः मयि निवसति, मम स्वरूपो भवति। योगेश्वरः श्रीकृष्णः पूर्वोक्तयज्ञार्थकर्मजातम् अतीव सुगमं सरलञ्च उक्तवान्। कोऽपि भक्तः फलं, पुष्पं, पत्रादिकं च मह्यं श्रद्धया निवेदयति, तत्सर्वमहं स्वीकरोमि। अतः अर्जुन, त्वं यत्किञ्चिदाराधनां करोषि तत्सर्वं मे समर्पय। यदा सर्वस्वस्य त्यागः भविष्यति, तदा त्वं योगयुक्तः सन् कर्मबन्धनान् मुक्तः भविष्यसि। मुक्तिश्चेयं मम स्वरूपमस्ति। संसारे सर्वे प्राणिनः सन्ति मामकाः, कैः अपि प्राणिभिः सह न मे वैरं न च प्रीतिः, अहं तटस्थोऽस्मि। किन्तु ये सन्ति मम अनन्यभक्ताः, तेषु अहं, ते च मयि। कश्चित् अत्यन्तदुराचारः, जघन्यतमः, पाप एवं कथं न स्यात्, पुनरपि सः अनन्यश्रद्धया भक्त्या च मां भजते चेत्, तदा तु साधुरूपेण समादरणीयः सम्माननीयश्च तस्य निश्चयः स्थिरः अस्ति, तर्हि स शीघ्रमेव परमे ब्रह्मणि संयुज्यते। तदा स्थितां शाश्वतीं शान्तिं च सुतरां समालभते। अत्र तु कृष्णेन सुविवेचितं यत् कोऽस्ति धार्मिकः। सृष्टौ गृहीतजन्मानः केऽपि प्राणिनः चेद् अनन्यभावेन एकं परमात्मानम् अर्चन्ति, तस्य चिन्तनं कुर्वन्ति, तर्हि ते प्राणिनः धार्मिकाः भवन्ति। अतस्ते धार्मिकाः ये मात्रैकपरमात्मनः भजनं कुर्वते। अन्ततः ददाति आश्वासनं यत् अर्जुन मम भक्तः कदापि नष्टो न भवति। भक्तस्तु भवेत् शूद्रः, भवेत् आदिवासी, भवेत् नीचः, भवेत् अनादिवासी, भवेत् किमपि नामधारी, भवेत् पुरुषः, भवेत् नारी, भवेत् पापयोनिः, भवेत् तिर्यग्योनिः, इत्थं योऽपि कोऽपि प्राणी पूर्वोक्तवर्गतः चेत् मम शरणम् आश्रयते, तर्हि परमं श्रेयः प्राप्नोति। अत एव अर्जुन सुखरहितं क्षणभङ्गुरं किन्तु दुर्लभं मानवशरीरं सम्प्राप्य मम भजनं कुरु। पुनस्तु ये ब्रह्मणि प्रवेशकारयित्रिभिः योग्यताभिः सन्ति सम्पन्नाः, ये ब्राह्मणस्तरेण राजर्षिसंस्तरेण च भजन्ति, एतादृशानां योगिनां तु विषये नास्ति किमपि वर्णनीयम्। ते स्वतः पारङ्गताः सन्ति। अतो हि अर्जुन निरन्तरं मन्मनाः सम्भूय निरन्तरं नमस्क्रियां विधेहि। इत्थं त्वं मम शरणागतः सन् मां प्राप्स्यसि, यतः पुनः पृष्ठानुवर्तनं न भविष्यति। प्रस्तुताध्याये भाष्ये तस्याः विद्यायाः सम्बन्धे प्रकाशः कृतः श्रीकृष्णेन। यां विद्यां श्रीकृष्णः स्वयं प्रजागरयति इयमस्ति राजविद्या, या एकदा जागृता सति निश्चितरूपेण कल्याणं करोति। ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याजागृती नाम नवमोऽध्यायः इति श्रीमत्परमहंसपरमानन्दस्य शिष्येण स्वामिना अडगडानन्दकृते श्रीमद्भगवद्गीतायाः यथार्थगीताभाष्ये राजविद्याजागृतिः नाम नवमोऽध्यायः। हरिः ॐ तत्सत्।